अथ श्री गिरिराज गोवर्धन प्रातस्मरणम् विष्णुस्वरूपं हरिदासवर्यं क्रोडे सदा क्रीडित कृष्णचंद्रम् गोगोप गोपी नवनंद पूज्यम् गोवर्धनं तं शिरसा नमामि श्रीकृष्णपादाङ्कितशैलराजं पञ्चामृतस्नापितदिव्यगात्रम् श्रीभक्तसिद्धैर्मितसेव्यमानम् गोवर्धनं तं वचसा वदामि गोवर्धनाथं ब्रजधाम संस्थं चिन्तामणिं श्री गिरिराजप्रस्थम् अस्मिन् युगे वांछितपूरकं श्री गोवर्धनं तं मनसा स्मरामि इन्द्रस्य कोपात् ब्रजलोकत्राता धर्मार्थकामान् इन्द्रस्य कोपात् ब्रजलोकत्राता धर्मार्थकामान् सह भक्तिदाता देवस्य देवो धातुश्च धाता दीनानुरक्तस्य पिता च माता येषां सश्रद्धा गिरिसन्निवासः चित्तेषु तेषां हरिदेववासः कुर्वन्तु हे देवदया प्रयासः भूयास्म गोवर्धनदास दासा अनन्यभक्ता तव पादसंश्रया धूलौ लुठन् त्वां प्रणमन्ति नित्यं ते दर्शनं स्पर्शनचिन्तनञ्च प्रदक्षिणं कामदुघं प्रकीर्तितं यथा तथा त्वा मवलोकयन् प्रभो वदेम ते कीर्तिमनूदितां प्रियां गिरीश शैलेश नगाधिराजे गणेश दासस्य शृणोतु प्रार्थना गणेश दासस्य शृणोतु प्रार्थना इति श्री सद्गुरुदेव श्री गणेश दास भक्तमाली विरचिता श्री गिरिराज गोवर्धन स्तुति ही।